सर्वेभ्यो नमः. गतवर्गे अस्माकं विषयः आसीत् आत्मनेपदिनः धातूनां रूपाणि. तत्र किञ्चित् परिचयः जातः कथारूपेण. अद्य अपि तस्य एव अभ्यासं कुर्मः. तत्र मूलरूपाणि सन्ति पुटसङ्ख्या पेज् 48 मध्ये. हा, तत्र इदानीम् आत्मनेपदी धातु इति अस्ति, पठति इति न, किन्तु सहते, सहेते, सहन्ते इति तादृशरूपाणि. तस्य अभ्यासम् अद्य कुर्मः. अत्र अहम् ईमेल् प्रेषितवान्. ईमेल् मध्ये तत्र करपत्रम् इति पदम् अस्ति, तदेव लिङ्क् अपि अस्ति. यदि करपत्रम् इति तस्मिन् क्लिक् करोति चेत् करपत्रं लभ्यते. तदेव अद्यतनकरपत्रं, तदेव तत्रैव अस्माकम् अभ्यासः अस्ति. अस्तु, प्रथमतया एकवारम् एतद् गृहपाठं यदासीत् तद् कुर्मः, तदनन्तरं करपत्रं गच्छामः. तस्मात् पूर्वं आत्मनेपदी धातूनां रूपाणि एकवारं पश्यामः. अस्तु, तत्र उषा भगिनी एकवारं सहते इति रूपाणि वदति वा?
सहते महोदय.
हा, सहते इति क्रियापदस्य सह इति धातोः हा रूपाणि वदन्तु. तत्र पेज् 48 मध्ये यत् कोष्टकम् अस्ति तद् दृष्ट्वा वदतु. सहते, सहेते इति
प्रथमपुरुष. सहते, सहेते, सहन्ते, सहसे, सहेते, सहेथे, सहद्वे, सहे, सहावहे, सहामहे.
इति अस्ति रूपाणि. एतदेव साधारणरूपम् आत्मनेपदी धातूनां. तत्र वयं कथायामपि आत्मनेधातून् दृष्टवन्तः. अद्य तस्य अभ्यासः प्रथमतया गृहपाठः, तद् एकवारं समापयामः, तदनन्तरं करपत्रं गच्छामः. तत्र नरेश महोदय नमस्कारः.
नमस्कारः महोदय.
नमस्कारः. गीताञ्जलि भगिनी, तत्र पेज् 49 उपरि तृतीय अभ्यासः, तत् पठति वा?
आं महोदय. एतेषु वाक्येषु परस्मैपदी क्रियापदानि प्रयुक्तानि सन्ति. तत् समानार्थकानि आत्मनेपदी क्रियापदानि कोष्टके दत्तानि सन्ति. ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत.
प्रथमं
वयं भारतमातरं प्रणमामः. वयं भारतमातरं वन्दामहे.
हा इति अस्ति, वयं वन्दामहे इति अस्ति. वन्दामहे इति क्रियापदस्य अन्यानि रूपाणि वदति वा?
वन्दे नवरूपाणि.
हा हा, सत्यं सत्यं. हा, नवरूपाणि वदन्तु भगिनि. हा, कोष्टकं दृष्ट्वा. सहामहे अस्ति, वन्दामहे अस्ति. इदानीं
वन्दते, वन्देते, वन्दन्ते, वन्दसे, वन्देथे, वन्दध्वे, वन्दे, वन्दावहे, वन्दामहे.
हा इति समीचीनं भगिनि. अस्तु, हा अग्रिमं तत्र करोति वा ईश्वरः?
अस्तु महोदय. ईश्वरः भक्तान् कष्टात् रक्षति. ईश्वरः भक्तान् कष्टात् आम, त्रायते.
हा अस्तु अस्तु, त्रायते समीचीनम् अस्तु. हा इदानीं वेणुगोपाल् महोदय. इदानीं त्रायते, त्रायते इति पदस्य नवरूपाणि वदति वा?
अस्तु महोदय, प्रथमपुरुषः त्रायते, त्रायेते, त्रायन्ते. मध्यमपुरुषः त्रायसे, त्रायेते, त्रायद्वे. उत्तमपुरुषः त्राहे, त्राये, त्रायावहे, त्रायामहे.
हा समीचीनं. हा इदानीम् अग्रिमं महोदय, यूयम्.
यूयं किं चिन्तयथ, यूयं किं मन्यद्वे, मन्यद्वे,
मन्यद्वे. समीचीनं महोदय, समीचीनं, मन्यद्वे इति समीचीनम् अस्तु. नरेश महोदय इदानीं, हा मन्यद्वे इति तस्य नवरूपाणि वदतु महोदय.
मन्यते, मन्येते, मन्यन्ते. मन्यसे, मन्येथे, मन्यद्वे. मन्ये, मन्यावहे, मन्यामहे.
हा समीचीनम्. अग्रिमवाक्यं,
तौ आकाशं पश्यतः. तौ आकाशं वीक्षेते,
वीक्षेते. समीचीनं महोदय, धन्यवादः. हा इदानीं शोभा भगिनी, तत्र वीक्षेते इति आसीत्. हा
वीक्षते, वीक्षेते, वीक्षन्ते, वीक्षसे, वीक्षेथे, वीक्षध्वे, वीक्षे, वीक्षावहे, वीक्षामहे.
हा समीचीनं. हा इदानीम् अग्रिमम्, अग्रिमवाक्यम्.
अग्रिमं, युवां सत्यं वदतः. युवां सत्यं भाषेथे.
हा भाषेथे, समीचीनं भगिनि. अस्तु इदानीं भाषेथे. हा भानुचेतनी महोदय.
महोदय, अग्रिम
भाषेते, भाषेते इति तस्य नवरूपाणि वदतु महोदय.
भाष्यते, भाषते, भाष्यते, भाष्यन्ते, भाषसे, भाष्यते.
पुनरेकवारं प्रथमपुरुषरूपं महोदय. भाषते,
भाषते, भाष्यते, भाष्यते.
न न न, तत्र सहते, न न, पेज् 48 पश्यतु, तत्र सहते, सहेते इति अस्ति, एकारः एव अस्ति, यकारः नास्ति. सहते, सहेते, सहन्ते. अतः
प्रथम एकवचनं द्विवचनमपि समानमेव महोदय.
न न न, एकवचनं सहते, हकारः, द्विवचने सहेते, एकारः.
भाषते, भाषेते, भाषन्ते, भाषसे, भाषते, भाषद्वे,
भाषेथे. इदानीं तकारः महाप्राणः द्विवचने.
भाषते, भाषद्वे,
भाषेथे,
भाष्ये,
भाषेथे,
भाषेथे,
सत्यम्,
भाषद्वे, भाषे, भाषावहे, भाषामहे.
हा समीचीनम्. हा इदानीम् अग्रिमं, बालिकाः इति.
बालिकाः, बालिकाः
अग्रिमपुटे, अग्रिमपुटे करपत्रमध्ये नास्ति महोदय. एतत् सर्वं गीतासोपाने एव गृहपाठः.
तुष्यन्ति, आम् महोदय, बालिकाः चित्रं दृष्ट्वा तुष्यन्ति. मोदन्ते,
मोदन्ते, समीचीनं महोदय. अस्तु मोदन्ते. हा इदानीं रघुपति महोदय, मोदन्ते इति क्रियापदस्य नवरूपाणि.
मोदते, मोदेते, मोदन्ते, मोदसे, मोदेथे, मोदध्वे, मोदे, मोदावहे, मोदामहे.
हा समीचीनं महोदय. अग्रिमम्,
अग्रिमम्, अहं देवं प्रणमामि, अहं देवं प्रणमामि, अहं देवं वन्दे.
अहं देवं वन्दे. समीचीनं महोदय, समीचीनं. मधुसूदन महोदय नमस्कारः.
नमस्कारः महोदय.
समये आगतवान् भवतः पर्याय एव इदानीं. अस्तु, तत्र पेज् 49 मध्ये गीतासोपाने.
अस्तु महोदय,
तत्र वदतु महोदय.
अहं बहिः.
अस्तु, न वक्तुं शक्नोति. अस्तु, शृणोति. अस्तु, अस्तु महोदय, समीचीनम्. अस्तु, अस्तु, अस्तु. अतः उषा भगिनी, भवती एव वन्दे इति.
वन्दे, वन्दते, वन्देते, वन्दन्ते, वन्दसे, वन्देथे, वन्दद्वे, वन्दे, वन्दावहे, वन्दामहे. वयं विश्वशान्तिम् इच्छामः. वयं विश्वशान्तिं कामयामहे.
कामयामहे, समीचीनं. इदानीं गीताञ्जलि भगिनी अग्रे कामयामहे इति.
कामये कामे
तत्र कामयामहे, सहामहे, सहामहे, कामयामहे. अत्र सहामहे मध्ये किमस्ति, महे त्यजामः, सहा इति अस्ति. अत्र कामयामहे, तत्र महे इति त्यजामश्चेत् कामया. इदानीं सहते,
कामयते.
समीचीनं.
कामयते, कामे, कामयेते, कामयन्ते, कामयसे, कामये, हे कामयद्वे, कामये, कामयावहे, कामयामहे.
समीचीनम्. इदानीम् अग्रिमम्.
ते मार्गे सन्ति. ते मार्गे वर्तन्ते.
वर्तन्ते, वर्तन्ते, समीचीनम्. अस्तु, शोभा भगिनी, वर्तन्ते.
वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेथे, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे.
समीचीनम्. अग्रिमम्.
त्वं कीर्तिं प्राप्नोषि. त्वं कीर्तिं लभसे.
लभसे, समीचीनम्. वंशीसुधा भगिनी नमस्कारः.
नमस्ते महोदय, क्षम्यतां विलम्बेन.
चिन्ता मास्तु. अस्तु, पुटसङ्ख्या 48-49 मध्ये स्मः.
आं महोदय.
तत्र इदानीं शोभा भगिनी, किं क्रियापदमासीत् भवत्याः?
लभसे.
लभसे, लभसे. अस्तु, वंशीसुधा भगिनी, लभसे इति क्रियापदस्य नवरूपाणि.
लभसे, लभेते, लभन्ते,
लभते,
लभते, लभेते, लभन्ते, लभसे, लभेथे, लभध्वे, लभे, लभावहे, लभामहे.
समीचीनं भगिनि. अस्तु, अग्रिम चत्वारः अभ्यासः तद् पठित्वा प्रथममपि करोतु भगिनि.
प्रथमं वाक्यम् अवधानेन पठत, द्वितीयवाक्यस्य कर्तृपदं दृष्ट्वा वाक्यानि परिवर्तयत. उदाहरणं, सर्वे विजयं कामयन्ते, अहं विजयं कामये. प्रथमम् अस्ति, यूयं नितरां मोदध्वे. अत्र नितरां द्वितीया विभक्तौ अस्ति, मोदध्वे इति मध्यमपुरुषे बहुवचने अस्ति. धातुः अस्ति मोदते, मोद इति धातुः अस्ति. द्वितीयपदमस्ति तौ. तौ नितरां मोदते. तौ इति प्रथमपुरुषस्य बहुवचनरूपम् अस्ति. ओ, द्वितीया, प्रथमपुरुषस्य द्वितीयविभक्तौ अस्ति. द्विवचनम्. आं, क्षम्यतां, प्रथमपुरुषस्य द्विवचनं. क्षम्यतां महोदय,
चिन्ता मास्तु.
त्वौ नितरां मोदते इति प्रथमपुरुषस्य
नितरां, तत्र भवती किम् उक्तवती, लभते इति.
आं महोदय
लभते लभेते इति
आं मोदेते
नितरां
मोदेते महोदय
हा समीचीनं भगिनि अस्तु धन्यवादः अस्तु चिन्ता मास्तु अस्तु अग्रे वेणुगोपाल महोदय
आं महोदय दुर्योधन दुर्योधनः आचार्यम् उपसङ्गच्छते आचार्यम् आचार्यम् उपसङ्गच्छते उपसङ्गच्छते त्वम् आचार्यम् उपसङ्गच्छसे
हा समीचीनं महोदय धन्यवादः समीचीनम् अस्तु वाञ्चितनि महोदय अग्रिमम्
आं महोदय दुर्योधनः एताः संस्कृतेन भाषन्ते यूयं संस्कृतेन भाषद्वे
हा समीचीनं महोदय अस्तु नरेश महोदय अग्रिमं
महोदय बालाः स्पर्धन्ते भवन्तौ स्पर्धेते
हा भवन्तौ स्पर्धेते भवन्तौ इति कः पुरुषः
प्रथमपुरुषः द्विवचनं
समीचीनं महोदय हा अस्तु अग्रे शोभा भगिनी
के युद्धात् पलायन्ते कौ युद्धात् पलायेते
हा कौ युद्धात् पलायेते समीचीनम् उषा भगिनी
वयं धर्मरक्षणम् अपेक्षामहे आवां धर्मरक्षणम् अपेक्षावहे
हा अपेक्षामहे समीचीनं भगिनि हा अग्रे रघुपति महोदय
हा महोदय सः चमुं वीक्षते युवां चमुं वीक्षेते
हा हा समीचीनं महोदय हा अग्रे वेणुगोपाल महोदय वंशीसुधा भगिनि
आं महोदय त्वं स्यन्दने विराजसे अत्र ते इति उपयुज्य द्विवाक्यानि सन्ति त्ये स्यन्दने विराजन्ते त्ये स्यन्दने विराजेते इति
स्त्रीलिङ्ग
आमां प्रथमस्ति विराजन्ते इति पुल्लिङ्गशब्दः बहुवचनं ते इति स्त्रीलिङ्गे द्विवचनम् अस्ति विराजेते
समीचीनं भगिनि धन्यवादः गीताञ्जलि भगिनी अग्रे क्षत्रियः
क्षत्रियः युद्धं लभते भवन्तः युद्धं लभन्ते
लभन्ते समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय
महोदय ते महीं भुञ्जते त्वं महीं भुङ्क्से भुङ्क्से
त्वं हा भुङ्क्षे हा भुङ्क्षे इति प्रायशः अस्ति त्वम् इति भवान् किम् उक्तवान् महोदय
त्वं महीं भुङ्क्से
भुङ्क्षे हा तत्र सकारः वा अथवा षकारः इति किञ्चित् मनसि क्लेशः अस्ति किन्तु अस्तु महोदय
सकारः अस्ति त्वं महीं भुङ्क्से
अस्तु महोदय अस्तु 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 महोदय अस्तु अस्तु
भुङ्क्षे इति अस्ति महोदय आत्मनेपदी भुङ्क्ते भुङ्जाते भुङ्क्ते भुङ्क्षे भुङ्जाथे भुङ्क्तध्वे भुङ्गे भुङ्गावहे भुङ्गमहे नवरूपाणि किञ्चित् भेदः अस्ति महोदय
तद् अन्यत् गणे अस्ति इति कृत्वा
आं महोदय भुज् इति धातुतः आगच्छति न महोदय
एतत् भुज् इति रुदादिगणे अस्ति सत्यं किन्तु किन्तु इदानीं साधारणरूपं चिन्तयामः अस्तु अस्तु महोदय, नरेश महोदय धन्यवादः, वंशीसुधा धन्यवादः। हा अग्रिमं नरेश महोदय अग्रिमं करोतु।
महोदय एक प्रश्नः अस्ति, ते महीं भुञ्जते, ते सः तौ ते बहुवचने अस्ति, भुञ्जते भुञ्जेते भुञ्जन्ते न महोदय?
हा न न तत् हा प्रश्नः तु समीचीनम् अस्ति भगिनि, किन्तु तत्र किं भवति, एतत् साधारण धातु नास्ति, साधारणधातु इत्युक्ते यत् प्रथमगणे अस्ति इति तादृश अस्ति, एतस्य रूपं किञ्चित् विशेषरूपम् अस्ति, तत्र किं भवति एकवचने भुङ्क्ते इति अस्ति, द्विवचने भुञ्जाते, तदनन्तरं भुङ्क् भुञ्जते इति बहुवचने अस्ति, अतः किञ्चित् क्लेशः, सत्यं किञ्चित् क्लेशः भवति, किन्तु वाक्यं तु समीचीनमेव अस्ति, ते इति बहुवचने अस्ति, भुञ्जते अपि बहुवचने एव अस्ति भगिनि।
धन्यवादः।
हा किन्तु प्रश्नः समीचीनः, विशेषरूपम् अस्ति इति कृत्वा। हा इदानीं मास्तु, अग्रे गत्वा पश्यामः, किन्तु समीचीनम्। हा अस्तु नरेश महोदय अग्रिमं पठतु महोदय।
कः विषयान् उपसेवते, विषयान् उपसेवेति।
हा उपसेवेते इति समीचीनम्। अस्तु अग्रे वेणुगोपाल महोदय।
महोदय सर्वे भगवतः मार्गम् अनुवर्तते अनुवर्तन्ते, वयं अनुवर्ता वर्तामहे।
पूर्णवाक्यं पूर्णवाक्यं सर्वे इति स्थाने वयं
भगवतः मार्गम् अनुवर्तामहे।
हा अनुवर्तामहे इति अस्ति, समीचीनं महोदय समीचीनम्। अस्तु अस्तु
महोदय, तत्र भगवत् इति शब्दः भगवतः इति षष्ठीविभक्तमस्ति
भगवतः, तस्य मार्गं तस्य मार्गम् अनुवर्तामहे,
भवतः इति असमानमेव
षष्ठी। हा सत्यं भवान् भगवान् भगवत् इति शब्दस्य प्रातिपदिकं भगवत्, भगवत् भवत् शब्द। समीचीनम् अस्तु। हा इदानीं मनसि आत्मनिपदी रूपाणि स्थापितवन्तः इति मन्ये। हा तत्र करपत्रस्य पूर्वं हा गतवर्गे हा कोऽपि उक्तवान् वा?
न।
अस्तु अस्तु अस्तु। हा गतवर्गे प्रश्नद्वयम् आगतमासीत्, एकः प्रश्नः आसीत् आत्मनेपधीनः इति पदं, हा पेज् 47 मध्ये आसीत् आत्मनेपधीनः धातूनां परस्मैपदीनाम् इति, तत्र प्रश्नः आसीत् एतद् कीदृशपदम् इति, आत्मनेपदीनः अपि परस्मैपदीनः, अहम् इदानीं ज्ञातवान् अद्य एव अत्र। हा एकः निमिषः अहं वदामि किम् अहं ज्ञातवान्।
महोदय क्षम्यताम्, अहं गन्तुम् इच्छामि।
अस्तु महोदय, अस्तु महोदय, नमस्कारः, नमस्कारः, नमस्कारः महोदय। हा तत्र आत्मनि पद इति अस्ति, तिङ्गन्त तिङ्प्रत्ययः, नव तिङ्गन्त तिङ्प्रत्ययः इति सन्ति, तत्र नव पठति इति तादृशप्रत्ययः तिङ् इति वदामः, तत्र नव तिङ्प्रत्ययाः परस्मैपदीप्रत्ययः, नव आत्मनेपदीप्रत्ययाः, तत्र धनं धनी इति पदमस्ति, धनी इत्युक्ते कीदृशपदं कोऽपि वदति वा? धनी
पुल्लिङ्गशब्दः,
हा किन्तु धनी इत्युक्ते यस्य यस्य धनम् अस्ति सः धनी, इति वाक्यं भवति, धनीन् इति नकारान्तपदः पदं भवति, अधिकारी इति अपि अस्ति खलु, यस्मिन् अधिकारः अस्ति सः अधिकारी इति, तादृश अत्रापि परस्मैपदं यस्मिन् सः परस्मैपदिन् इति भवति. तादृशेव आत्मनि तत्र तिङ् प्रत्यय नवतिङ् प्रत्यया सन्ति परस्मैपद तिङ् प्रत्ययः प्रत्ययः परस्मैपदं यस्मिन् अस्ति सः परस्मैपदीन् इति भवति. तद् प्रथमप्रश्नः आसीत्. अन्यप्रश्नः आसीत् व्याप्ति तस्य तत्र कथायाम् आगतम् आसीत् व्याप्य इति. तत्र पेज् 45 मध्ये अधोभागे अन्तिमवाक्यस्य पूर्ववाक्यं परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने इति आसीत्. तत्र व्याप्य इत्युक्ते किम् इति तत् तत्र किमस्ति तत्र आप् इति धातुः अस्ति वि इति उपसर्गः अस्ति तत्र व्याप्नोति इति लट्लकाररूपं तत्र ल्यबन्तरूपमस्ति व्याप्य इति. अस्तु हा एतत् गतवर्गे आगतः प्रश्नानाम् उत्तरं हा इदानीं करपत्रं कर्तुं शक्नुमः इति मन्ये. अस्तु हा इदानीं करपत्रम् अस्ति वा सर्वे प्राप्नुवन्तः वा? यदि करपत्रं न लभते हा वंशीसुधा भगिनी इदानीं प्राप्तवती वा? तत्र क्लिक् करोतु करपत्रम् इति यत् पदमस्ति ईमेल् मध्ये तदेव क्लिक् करोतु करपत्रं प्राप्नोति. आत्मनेपदिनः दातवः इति करपत्रं
तत्र हैपर् लिङ्क् नास्ति इति अहं चिन्तयामि.
सत्यं 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 भगिनि किन्तु तत्र नूतन टेक्नालजि अस्ति अहं न जानामि किमर्थं किन्तु तत्र एव लिङ्क् आसीत्. अस्तु
महोदय अहं नः पदान्ते नः न अवगच्छामि. आत्मनेपदी नः परस्मैपदी नः
तत्र पदी पदिन्निति पदम् आत्मनेपदिनः आत्मनेपदं यस्मिन् अस्ति सः आत्मनेपदिन् तद् नकारान्तपदम् अस्ति तस्य बहुवचनरूपं पदिनः इति. किन्तु तत्र आत्मनेपदिनः तत्र प्रायशः अत्र किम् आत्मनेपदिनः प्रायशः तत्र षष्टिविभक्तिरूपमपि भवितुमर्हति आत्मनः इति तादृशरूपम्
नकारान्तशब्दमपि भवति महोदय.
नकारान्तः एव आत्मनपदिन् आत्मनपदिन् एव नकारान्तशब्दः एव अस्ति सत्यं. तत्र गीताञ्जलि भगिनी परस्मैपदीनाम् इति धातूनां लट्लकारस्य धातूनाम् इति षष्टिरूपम् अस्ति बहुवचनं तत् तादृशेव परस्मैपदीनाम् अपि षष्टि बहुवचनरूपम् अस्ति.
अस्तु महोदय अवगच्छामि.
अस्तु इदानीं करपत्रं गच्छामः. आत्मनेपदिनः दातवः एतत् स्वरूप महोदयेन कृतं बहुवर्षपूर्वं किन्तु अद्यापि तस्य उपयोगः अस्ति. अस्तु तत्र वेणुगोपाल् महोदय तत्र प्रथमतया कोष्टकं पठति वा तत्र?
आम् महोदय. आत्मने पदिनः दातवः कोष्टके अस्ति प्रथमपुरुषः एकवचनं प्रथमपुरुषः
केवलं नवरूपाणि एकवारं वदतु.
अस्तु अस्तु महोदय. प्रथमपुरुषः वर्तते वर्तेते वर्तन्ते मध्यमपुरुषः वर्तसे वर्तेथे वर्तध्वे प्रथमपुरुषः वर्ते वर्तावहे वर्तामहे
इति. अस्तु इदानीं मोदते इति करोतु.
अस्तु मोदते प्रथमपुरुषः मोदते
त्यजतु महोदय केवलं मोदते इति तस्य रूपा नवरूपाणि वदतु महोदय.
आं महोदय. मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदेथे मोदध्वे मोदते मोदावहे मोदामहे.
हा इति समीचीनं महोदय. अस्तु भानुचेतनी महोदय अग्रिमं म्रियते इति.
म्रियते म्रियेसे म्रियन्ते म्रियसे म्रियथे म्रियद्वे
म्रियेथे
म्रियेथे म्रियद्वे म्रिये म्रियावहे म्रियामहे.
हा समीचीनं महोदय. अस्तु हा अग्रे उषा भगिनी.
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेते वर्धद्वे वर्धे वर्धावहे वर्धामहे.
हा समीचीनं. हा इदानीं शोभा भगिनी.
ईहते ईहेते ईहन्ते ईहसे ईहेथे ईहद्वे ईहे ईहावहे ईहामहे.
हा समीचीनं. रघुपति महोदय.
एकनिमिषं महोदय. ईहते शोभते शोभते शोभेते शोभन्ते शोभसे शोभेथे शोभद्वे शोभे शोभावहे शोभामहे.
हा समीचीनं. गीतांजलि भगिनी अग्रे.
शङ्कते शङ्कते शङ्केते शङ्कन्ते शङ्कसे शङ्केते शङ्कद्वे शङ्के शङ्कावहे शङ्कामहे.
हा समीचीनं. हा वंशीसुधा भगिनी अग्रे.
आं महोदय. खिद्यते खिद्येते खिद्यन्ते खिद्यसे खिद्येथे खिद्यद्वे खिद्ये खिद्यावहे खिद्यामहे.
हा समीचीनं. नूतनतया कोऽपि आगतं वा
महोदय? अहं पठितुं शक्नोमि.
मधुसूदन महोदय पठितुं शक्नोति. अस्तु अन्य कोऽपि? श्रीनिवास महोदय पठितुम् इच्छति वा महोदय भवानपि? अस्तु अस्तु महोदय. मधुसूदन महोदय इदानीं राजते इति पठति वा करपत्रे? जानाति खलु कुत्र स्मः इति. श्रीनिवास महोदय तत्र ईमेल् द्वारा करपत्रम् इति लिङ्क् आसीत्, तद् क्लिक् करोति चेत् लभते करपत्रं, तदेव इदानीं कुर्मः. मधुसूदन महोदय वदतु महोदय राजते इति.
राजते राजेते राजन्ते राजे राजस्ते राजेथे राजद्वे राजे राज राजावहे राजामहे.
हा समीचीनं महोदय. अस्तु इदानीं श्रीनिवास महोदय प्राप्तं वा करपत्रं?
न महोदय.
ईमेल् मध्ये करपत्रम् इति गृहपाठस्य कोष्टके अस्ति अत्र. समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय तत्र प्रकाशते इति.
प्रकाशते प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेथे प्रकाशद्वे प्रकाशे प्रकाशावहे प्रकाशामहे.
हा समीचीनं. हा वेणुगोपाल महोदय अग्रे.
प्रकाशते ऊहते ऊहेते ऊहन्ते ऊहसे ऊहेथे ऊहद्वे ऊहे ऊहावहे ऊहामहे.
हा समीचीनं. हा इदानीं भानुचितनि महोदय लज्जते.
लज्जते लज्जेते लज्जन्ते लज्जसे लज्जथे लज्जद्वे लज्जे लज्जावहे लज्जामहे.
हा अस्तु अग्रे उषा भगिनी. कम्पते
कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पेद्वे
कम्पद्वे
कम्पद्वे कम्पे कम्पावहे कम्पामहे.
हा समीचीनं भगिनी. अस्तु गीताञ्जलि भगिनी अग्रे. मन्यते
मन्यते मन्येते मन्यन्ते मन्यसे मन्येथे मन्यध्वे मन्ये मन्यावहे मन्यामहे।
हा इदानीं शोभा भगिनी पलायते
पलायते पलायेते पलायन्ते पलायसे पलायेथे पलायध्वे पलाये पलायावहे पलायामहे।
हा समीचीनं। हा अग्रे मधुसूदन महोदय विद्यते इति
विद्यते विद्येते विद्यन्ते विद्यते विद्येते विद्यद्वे विद्ये विद्यावहे विद्यामहे।
हा समीचीनं। वंशीसुध भगिनि।
आ महोदय कामयते कामयते कामयेते कामयन्ते कामयसे कामयेथे कामय कामयध्वे कामये कामये कामयावहे कामयामहे।
हा कामयामहे समीचीनं भगिनि। हा अस्तु मधुसूदन महोदय अग्रे ईक्षते इति
ईक्षते ईक्षेते ईक्षन्ते ईक्षसे ईक्षेते ईक्षद्वे ईक्षे ईक्षावहे ईक्षामहे।
हा समीचीनं। हा अग्रे रघुपति महोदय एदते
एदते एदते एदेते एधन्ते एदसे एदेते एदद्वे एधे एदावहे एदामहे।
हा समीचीनं। वेणुगोपाल महोदय भाषते
क्षम्यतां महोदय मूट् मध्ये अस्मि। भाषते भाषेथे भाषन्ते भाषसे भाषेथे भाषद्भे भाषे भाषावहे भाषामहे।
हा समीचीनं महोदय। श्रीनिवास महोदय कर्तुं शक्नोति वा इदानीम्?
आं महोदय।
अस्तु अग्रिमं करोति वा सेवते इति।
सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवद्वे सेवे सेवावहे सेवामहे।
हा समीचीनं महोदय। अस्तु अग्रे शोभा भगिनी
सहते सहते
ओ सहते सत्यं सत्यं। हा
सहते सहेते सहन्ते सहसे सहेथे सहद्वे सहे सहावहे सहामहे।
हा समीचीनम्। उषा भगिनी अग्रे
रमते रमेते रमन्ते रमसे रमेथे रमद्वे रमे रमे
रमे
रमे वहे रमे
रमे रमे तदनन्तरं
रमे रमावहे रमामहे।
हा समीचीनं भगिनी। अस्तु हा अस्तु अग्रे वेणुगोपाल महोदय लभते इति
लभते लभते लभेते लभन्ते लभसे लभेते लभद्वे लभे लभावहे लभामहे।
हा अस्तु। हा इदानीम् अत्र एव किञ्चित् योजयित्वा तदेव क्रियापदम् इदानीं वदामः। तत्र अस्तु प्रथमतया हा वंशीसुधा भगिनी तत्र सा इति उपयुज्य सा मोदते इति केवलं प्रथमपुरुषः रूपत्रयं
मोदते
सा मोदते सा मोदते
सा मोदते तौ सा मोदते ते वर्तते
केवलं मोदते इति उपयुज्य रूपत्रयं सा मोदते ते मोदेते
सा मोदते ते मोदेते ताः मोदन्ते
तावदेव रूपत्रयं प्रथमपुरुषः परप्रथमपुरुषः एव। अस्तु इदानीं शोभा भगिनी तत्र सः म्रियते इति
सः म्रियते सः म्रियते तौ म्रिय सः म्रियते तौ म्रियेते ते म्रियन्ते।
हा समीचीनम्। अस्तु हा इदानीं रघुपति महोदय एषा वर्धते रघुपति महोदय अस्तु
महोदय एकनिमिषं इदानीम्
एषा वर्धते केवलं प्रथमपुरुषरूपत्रयम्
ओके एषा न एषा वर्धते एते वर्धेते एताः वर्धन्ते
हा तावदेव समीचीनम् अस्तु गीताञ्जलि भगिनी सः ईहते इति
सः ईहते तौ ईहेते
ईहन्ते समीचीनं भगिनि अस्तु मधुसूदन महोदय सा शोभते
सा शोभते ते शोभेते ताः शोभन्ते
हा समीचीनम् अस्तु इदानीं वेणुगोपाल महोदय तत्र शङ्कते हा सः शङ्कते
सः शङ्कते तौ शङ्केते ते शङ्कन्ते
हा समीचीनम् अस्तु भानुचेतनी महोदय भानुचेतनी महोदय हा अस्तु इदानीं भवान् किद्यते इति रूपत्रयं भवान् किद्यते इति प्रथमपुरुषरूपत्रयम् एकवचने द्विवचने बहुवचने
भवन्तौ खिद्येते भवन्तः खिद्यन्ते
हा समीचीनम् अस्तु समीचीनं महोदय अस्तु अग्रे मधुसूदन महोदय तत्र राजते भवती राजते
भवती राजते भवत्यौ राजेते भवत्यः राजन्ते
हा समीचीनं महोदय अस्तु श्रीनिवास महोदय सः प्रकाशते
सः प्रकाशते तौ प्रकाशेते ते प्रकाशन्ते
हा समीचीनं महोदय अस्तु वंशीसुधा भगिनी इदानीं ऊहते हा भवान् ऊहते
भवान् ऊहते भवन्तौ ऊहेते क्षम्यता भवन्तौ ऊहते ऊहेते भवन्तः ऊहन्ते
हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी लज्जते भवती लज्जते
भवती लज्जते भवत्यौ लज्जेते भवत्यः लज्जन्ते
हा समीचीनं हा शोभा भगिनी कम्पते तत् कम्पते
तत् कम्पते ते कम्पेते तानि कम्पन्ते
हा समीचीनं भगिनि हा अस्तु उषा भगिनी इदानीं मन्यते सः मन्यते
सः मन्यते तौ मन्येते ते मन्यन्ते
हा समीचीनं वेणुगोपाल महोदय पलायते चोरः पलायते
चोरः पलायते चोरौ पलायेते चोराः पलायन्ते
हा समीचीनं भानुचेतनी महोदय विद्यते भवती विद्यते
भवती विद्यते आम् महोदय भवती विद्यते भवत्यौ विद्येते भवत्यः विद्यन्ते
हा समीचीनम् अस्तु कामयते श्रीनिवास महोदय भवान् कामयते
भवान् कामयते भवन्तौ कामयेते भवन्तः कामयन्ते
हा अस्तु इदानीं मधुसूदन महोदय एषा ईक्षते
एषा ईक्षते एते ईक्षेते एताः ईक्षन्ते
हा समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनी एदते एतत् एदते
एतत् एधते एते एधेते एतानि एधन्ते।
हा समीचीनं भगिनि, अस्तु। हा शोभा भगिनि अग्रे भवती भाषते।
भवती भाषते, भवत्यौ भाषेते, भवत्यः भाषन्ते।
हा समीचीनं। रघुपति महोदय पुरुषः सेवते।
पुरुष
न श्रूयते महोदय।
श्रूयते वा
महोदय? इदानीं श्रूयते, इदानीं श्रूयते।
पुरुषः सेवते, पुरुषौ सेवेते, पुरुषाः सेवन्ते।
हा समीचीनम्, अस्तु। अग्रे वेणुगोपाल् महोदय महिला सहते।
महिला सहते, महिले सहेते, महिलाः सहन्ते।
हा समीचीनम्, अस्तु। अग्रे हा वंशीसुधा भगिनी रमते। एषः रमते।
एषः रमते, एतौ रमेते, एताः रमन्ते।
एषः
एषः एषः एतौ एते क्षम्यताम् एषः रमते, एतौ रमेते, एते रमन्ते।
हा समीचीनं भगिनि, अस्तु। मधुसूदन महोदय अन्तिमं लभते, सः लभते।
सः लभते, तौ लभेते, तौ लभेते, ते लभन्ते।
ते लभन्ते, अस्तु। हा इदानीं तत्र एव इदानीं मध्यमपुरुषस्य एकवारम् अभ्यासं कुर्मः, अस्तु। तत्र हा गीताञ्जलि भगिनी मोदते इति, हा तत्र त्वं युवां यूयम् इति उपयुज्य, हा मोदसे इति, हा त्वं मोदसे इति रूपत्रयं वदति वा?
त्वं मोदसे, युवां मोदथे,
मोदेथे, मोदेथे,
यूयं मोदध्वं,
मोदद्वे,
मोदद्वे।
हा 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 मोदद्वे। हा सर्वत्र एकारः अस्ति भगिनि, खलु? अस्तु अस्तु। इदानीं शोभा भगिनी तत्र म्रियसे इति, त्वं म्रियसे,
त्वं म्रियसे, युवां म्रियेथे, यूयं म्रियध्वे।
हा म्रिय म्रिय इति,
म्रियसे म्रि, त्वं म्रियसे, युवां म्रियेथे, यूयं म्रियध्वे।
हा समीचीनं भगिनि, अस्तु। उषा भगिनी अग्रिमं वर्धते, वर्धसे, त्वं
त्वं त्वं वर्धसे, युवां वर्धेथे, यूयं वर्धध्वे।
हा वेणुगोपाल् महोदय अग्रिमम्
ईहते, त्वं ईहसे, युवां ईहेते, यूयं ईहद्वे।
हा यूयम् ईहद्वे समीचीनं। बालचैतन्य महोदय अग्रिमं शोभते, त्वं
शोभते,
हा त्वं शोभसे इति मध्यमपुरुष इदानीं,
त्वं शोभसे, युवां शोभते,
शोभेते,
यूयं शोभद्वे,
युवां
शोभेते,
हा
युवां शोभेते, यूयं शोभद्वे।
हा समीचीनं महोदय, अस्तु। रघुपति महोदय अग्रिमं
किमस्ति महोदय, एकनिमिषं,
शङ्कते,
शङ्कते, शङ्कते, यूयं शङ्कद्वे, युवां शङ्केते, त्वं शङ्कसे।
हा त्वं शङ्कसे, अस्तु महोदय, अस्तु। हा अस्तु, अग्रे मधुसूदन महोदय किद्यते इति, त्वं
त्वं किद्यसे, किद्यसे, युवां किद्येते, किद्येते, यूयं किद्यद्वे।
हा समीचीनं, श्रीनिवास महोदय अग्रिमं
महोदय, त्वं राजते, राजसे, युवां राजेते, यूयं राजद्वे।
राजद्वे. समीचीनं महोदय. अग्रिमं वंशीसुधा भगिनी.
आं महोदय. त्वं प्रकाशसे युवां प्रकाशेथे यूयं प्रकाशद्वे.
हा समीचीनं. गीतांजलि भगिनी अग्रिमम्. गीतांजलि भगिनि.
ओ क्षम्यतां महोदय, म्यूट् मध्ये.
अस्तु. ऊहते.
त्वम् ऊहसे युवाम् ऊहेथे यूयम् ऊहद्वे.
हा समीचीनं. शोभा भगिनि अग्रिमम्.
त्वं लज्जसे युवां लज्जेथे यूयं लज्जद्वे.
हा समीचीनं. वेणुगोपाल् महोदय कम्पते.
त्वं कम्पसे युवां कम्पेथे यूयं कम्पद्वे.
हा समीचीनम्. इदानीं बालचेतन महोदय मन्यते इति त्वं
मन्यसे युवां मन्येथे यूयं मन्येद्वे.
हा समीचीनम्. उषा भगिनी अग्रे पलायते.
त्वं पलायसे युवां पलायते यूयं
युवां पुनः भगिनि युवां
युवां पलायेथे
हा
यूयं पलायद्वे.
हा तत्र ये इति अस्ति. समीचीनं भगिनि. अस्तु अग्रे मधुसूदन महोदय.
त्वं विद्यसे युवां विद्येते यूयं विद्यद्वे.
हा समीचीनं. श्रीनिवास महोदय.
त्वं कामयते युवां कामयेते यूयं कामयद्वे.
हा वंशीसुधा भगिनी अग्रे.
त्वम् ईक्षसे युवाम् ईक्षेथे यूयम् ईक्षध्वे.
हा समीचीनं. वेणुगोपाल् महोदय अग्रे एदते.
त्वम् एदसे युवाम् एदते
युवां किमस्ति
एधेते.
हा समीचीनं.
एधेते यूयम् एतद्वे.
समीचीनं महोदय. अस्तु अग्रे रघुपति महोदय.
महोदय
भाषते.
एकनिमिषं. भाषते. त्वं भाषसे युवां भाषेथे यूयं भाषद्वे.
हा समीचीनम्. उषा भगिनि.
सेवते. त्वं सेवसे युवां सेवेथे यूयं सेवद्वे.
हा बालचेतन महोदय सहते.
त्वं सहसे युवां सहेथे यूयं सहद्वे.
हा समीचीनं. शोभा भगिनी.
त्वं रमसे युवां रमेथे यूयं रमद्वे.
हा समीचीनम्. अस्तु अग्रे गीतांजलि भगिनी.
त्वं लभसे युवां लभेथे यूयं लभद्वे.
हा इति समीचीनम्. अस्तु एतद् तत्र उत्तमपुरुषरूपं बहु समीचीनम् अस्ति इति मन्ये तत्र. अतः वर्तावहे वर्तामहे इति प्रायशः तद् सरलरूपेण स्थापयितुं शक्नुमः इति मन्ये. अस्तु इदानीम् अग्रे गच्छामः. हा तत्र अग्रे हा वंशीसुधा भगिनी. हा तत्र प्रथमवाक्यम् एकवारं पठतु भगिनि.
पक्षी आकाशे दयते.
हा पक्षी आकाशे
दयते.
हा अत्र अस्तु तत्र ढयते इति तत्र रूपत्रयं वदतु भगिनि.
आम् डयते डयेते डयन्ते डयसे डयसे डयेथे डयद्वे डये दयावहे दयामहे.
हा समीचीनं भगिनि. अस्तु अग्रे मधुसूदन महोदय.
एषः दूरवाण्या भाषते.
इदानीम् एतत् कुर्मः, तत्र प्रथमवाक्ये पक्षी इति रूपस्तत् पदस्य बहुवचनरूपमपि सर्वे न जानीयुः इति कृत्वा तद् न कृतवान्, किन्तु अत्र रूप द्विवचने अपि बहुवचने एतद् वाक्यं वक्तुं शक्नुमः, तत् करोति वा? न न एषः एषः दूरवाण्या भाषते,
एषः दूरवाण्या भाषते, एतौ दूरवाण्या भाषेते, एते दूरवाण्या भाषन्ते।
हा समीचीनं महोदय, अस्तु हा अग्रे शोभा भगिनी।
पुस्तकम् उत्पीठिकायां विद्यते।
तद् तत्र
द्विवचनम्
अपि बहुवचनम्।
पुस्तके उत्पीठिकायां विद्येते, पुस्तकानि उत्पीठिकायां विद्यन्ते।
हा इति समीचीनं भगिनि, अस्तु अग्रे उषा भगिनि।
गृहिणी वातायनात् वीक्षते, गृहिण्यौ वातायनात् वीक्षेते, गृहिण्याः वातायनात्
नदी नद्यौ
नद्याः
नद्याः नद्याः इति प्रथमाविभक्तिरूपं नास्ति, नदी नद्यौ
नद्यः
नद्यः हा नद्याः इति तत्र भवती भवत्यो भवत्यः भवती उक्तवती हा भवती उक्तवती पूर्वम् इति मन्ये। हा
गृहिण्यः वातायनात् वीक्षन्ते।
समीचीनं भगिनि, अस्तु हा वेणुगोपाल महोदय अग्रिमम्।
आकाशे सूर्यः प्रकाशते, आकाशयोः
न न आकाशे तत्र आकाशे इति सप्तमीविभक्ति अस्ति, यत्र सूर्यः इति कर्तृपदमस्ति अत्र।
आकाशे सूर्यः प्रकाशते,
वाक्यम् एतत् चिन्तयतु, सूर्यः आकाशे प्रकाशते इति चिन्तयतु,
सूर्यः सूर्यः आकाशे प्रकाशते, अस्तु
द्विवचने सूर्यः किं भवति?
सूर्यः सूर्यौ आकाशे सूर्यौ प्रकाशेते प्रकाशेते आकाशे सूर्याः प्रकाशन्ते।
हा समीचीनं महोदय, अस्तु भानुचेतने महोदय। अस्तु मन्ये इति मन्ये, अस्तु अग्रे वंशीसुर भगिनि।
आं महोदय, शिशुः एधते, शिशू एधेते, शिशवः एधन्ते।
हा समीचीनम्, अस्तु हा अग्रे कः न उक्तवान्, सर्वे एकवारं कृतवन्तः, श्रीनिवास महोदय। हा बनचित्रं महोदय नमस्कारः, हा अस्तु श्रीनिवास महोदय करोति, तदनन्तरं भवान् करोतु महोदय।
भक्तः देवं वन्दते, भक्तौ देवं वन्देते, भक्ताः देवं वन्दन्ते।
हा समीचीनं, हा बनचित्रं महोदय अग्रिमं। चोरः
महोदय, चोरः आरक्षकात् पालयते,
पलायते,
चोरः आरक्षकात् पलायते, चोरौ आरक्षकात् पलायते, चोराः आरक्षकात् पलायन्ते।
हा समीचीनं महोदय, अस्तु अग्रे मधुसूदन महोदय, शिष्यः।
महोदय, शिष्यः गुरुं सेवते, शिष्यौ गुरुं सेवेते, शिष्याः गुरुं सेवन्ते।
हा समीचीनम्, अस्तु हा इदानीं याचकः भुङ्क्ते इति अस्ति, हा तद् हा किं कुर्मः, तत् अस्तु तत्र याचकः भुङ्क्ते इति एव, हा तत्र वयं बहुवचनरूपं दृष्टवन्तः खलु याचकः भुङ्क्ते बहुवचने तत्र आसीत् खलु गृहपाठे किम् आसीत् ते महीं भुञ्जते इति हा भुञ्जते इति आसीत् अस्तु तत्र केवलं बहुवचनमेव तत्र याचकाः भुञ्जते इति तत् कुर्मः अस्तु अग्रे अग्रिमवाक्यं पश्यामः शोभा भगिनी अग्रिमं माता इति
माता माता पाकशालायाम् आस्ते मातरौ पाकशालायां आस्ते किं
कुर्मः एकनिमिष भगिनि अस्तु अग्रिमं करोतु अहं वदामि ब्रह्मचारी इति तत् करोतु
ब्रह्मचारी
तदपि प्रायश ब्रह्मचारीन् अस्तु हा अस्तु अस्तु अस्तु
भुङ्क्ते अहं वदामि वा महोदय
अस्तु 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 वदतु भगिनि अस्तु
याचकः भुङ्क्ते याचकौ भुञ्जाते याचकाः भुञ्जते
अस्तु भगिनि समीचीनम्
आस्ते अस्ति आस्ते आसाते आसते
आसाते अपि
आसाते आसते बहुवचन आस्ते आसाते आसते
अस्तु तदपि विशेषरूपम् अस्ति अस्तु कस्मिन् गणे अस्ति एतत्
एतत् अदादिगणे अस्ति
अदादिगणे अस्तु 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 तत्र अस्तु किं हा वधू प्रायशः तत् जानीमः इति मन्ये अस्तु तत् कुर्मः अस्तु तत्र हा उषा भगिनी वधूः
वधूः श्वशुरात् लज्जते वध्वौ श्वशुरात् लज्जेते वध्वः श्वशुरात् लज्जन्ते
अस्तु हा अस्तु भगिनि हा वधू इति समीचीनं भगिनि अस्तु समीचीनम् अस्तु धन्यवादः हा अस्तु अग्रे वेणुगोपाल् महोदय छात्रः
देवं प्रार्थयते
प्रार्थयते
छात्रौ देवं प्रार्थयते
प्रार्थयते
प्रार्थयेते छात्राः देवं प्रार्थयन्ते
प्रार्थ तत्र केवलं यत्र ते इति अस्ति खलु महोदय तत्र प्रार्थयन्ते प्रार्थयेते
प्रार्थयन्ते
हा समीचीनं महोदय छात्राः
देवं प्रार्थयेते छात्रौ छात्राः देवं प्रार्थयन्ते
हा समीचीनं महोदय अस्तु गीतञ्जलि भगिनी अग्रे
एषः उद्याने मोदते एतौ उद्याने मोदेते एते उद्याने मोदन्ते
हा अस्तु समीचीनं इदानीं श्रीनिवास महोदय
नारिकेलवृक्षः वर्धते नारिकेलवृक्षौ वर्धन्ते वर्धेते क्षमतां नारिकेलवृक्षौ वर्धेते नारिकेलवृक्षाः वर्धन्ते
हा समीचीनं महोदय अस्तु अग्रे वंशीसुधा भगिनी
आं महोदय कमलं जले जायते कमले जले जायेते कमलानि जले जायन्ते
हा समीचीनं भगिनि अस्तु हा सत्यं भगिनि हा मधुसूदन महोदय अग्रे
महोदय बालकः मिष्टान्नं कामयते
मिष्टान्नं
कामयते बालकौ मिष्टान्नं कामयते बालकाः मिष्टान्नं कामयन्ते
हा समीचीनम् अस्तु अग्रे रघुपति महोदय
एकनिमिषं महोदय. बालकः बालकः ओके कण्ठे कण्ठे हारः हारः शोभते. कण्ठे हारः हारौ शोभेते. कण्ठे हाराः शोभन्ते.
हा समीचीनम् अस्तु. अग्रे बालचन्द्रि महोदय.
आं महोदय. एषः एतौ बन्धोः वियोगेन खिद्येते. एते वियोगेन बन्धौ खिद्यन्ते.
एते बन्धोः वियोगेन
खिद्यन्ते.
खिद्यन्ते समीचीनं महोदय. अस्तु अस्तु. अग्रे शोभा भगिनी अग्रे.
गोविन्दः स्पर्धते. गोविन्दौ स्पर्धेते. गोविन्दाः स्पर्धन्ते.
हा समीचीनम् अस्तु. गीताञ्जलि भगिनी अग्रे.
लतायां पुष्पे जायते. लतायां पुष्पे जायेते. लतायां पुष्पं जायते. लतायां पुष्पाणि जायन्ते.
हा समीचीनं भगिनि अस्तु. अग्रे मधुसूदन महोदय.
वृक्षाः वायुना कम्पन्ते. वृक्षः वायुना कम्पते. वृक्षौ वायुना कम्पेते. वृक्षाः वायुना कम्पन्ते.
हा समीचीनम् अस्तु. अग्रे श्रीनिवास महोदय.
वृक्षे पुष्पाणि शोभन्ते. बहुवचनमस्ति. वृक्षः वृक्षे पुष्पं शोभते. वृक्षे पुष्पे शोभेते. वृक्षे पुष्पाणि शोभन्ते.
हा समीचीनं महोदय अस्तु. वंशीसुधा भगिनी अग्रे.
आं महोदय. सत्कार्येण ते सुखं लभन्ते. सत्कार्येण सः सुखं लभते. सत्कार्येण तौ सुखं लभेते. सत्कार्येण ते सुखं लभन्ते.
हा समीचीनं भगिनि.
महोदय, वृक्षे पुष्पाणि शोभन्ते. तत्र पुष्पाणि इति कर्तृपदमस्ति, वृक्षे इति कर्तृपदमस्ति महोदय?
वृक्षे इति सप्तमीभक्तिरूपं खलु भगिनि. कर्तृपदं तु कर्तृपदस्य रूपं कीदृशम्? अन्ते विभक्ति का कर्तृपदस्य? रामः गच्छति.
आमां महोदय.
रामः किं भवति? रामः ग्रामं गच्छति. रामः कर्तृपदम् इति अस्ति. विभक्ति का?
पुष्पाणि वृक्षे शोभन्ते इति अहं चिन्तयामि महोदय.
हा तत्र वृक्षे इति त्यजतु, त्यक्त्वा अपि वाक्यं भवति वा?
पुष्पाणि शोभन्ते.
तद् वाक्यम् अवगच्छति वा? पुष्पाणि शोभन्ते इति.
तत् अहं किञ्चित् संशयः अस्ति महोदय.
पुष्पाणि शोभन्ते इति भगिनि शोभते इत्युक्ते किं?
तदपि सम्यक् एव अहं चिन्तयामि. पुष्पाणि शोभन्ते तदपि बहुवचने अस्ति. शोभन्ते इति बहुवचने.
पुष्पं शोभते. पुष्पाणि शोभन्ते.
आं महोदय.
तत्र क्रियापदं किम् अस्ति?
क्रियापदं शोभते.
अस्तु. इदानीं किम् अस्ति तत् पुष्पम् इति शोभते इति क्रियापदमस्ति. पुष्पं किं भवति? कर्तृपदं, कर्मपदम्, अन्यत् पदम्?
आम् आं महोदय. अहं चिन्तयामि कर्मपदं या कर्तृपदम् अस्ति अहं चिन्तयामि पुष्पाणि पुष्पं शोभते इति वाक्यमपि सम्यक् न महोदय
सम्यक् एव अस्ति भगिनि अतः एव तत् पुष्पम् इति कर्मपदं वा कर्तृपदं वा
पुष्पम् अति कर्मपदमस्ति तत्र कर्मपदमस्ति
तत्र कर्मपदमस्ति अस्तु इदानीं कर्तृपदं किम् अस्ति
आमां महोदय अहं
तत्र भगिनि तत्र शोभते इत्युक्ते किं
शोभते शोभते क्रियापदमस्ति महोदय
न न अर्थः कः शोभते इत्युक्ते
शोभते इति किं वदामि शोभते इट् गिव्स् it gives more the delight or
shine shine iti api
ha shine shobhate
astu astu
mohode mohode akarmaka asti tat
satyam satyam mohode kintu kintu ha satyam satyam kintu tatra kevalam ekam eva asti vakyam asti mohode yadi vakye kriya padam asti anyat padam asti iti chet तत् अन्यत् पदं किं कर्मपदं वा कर्तृपदं वा
तत्र वृक्षः पुष्पमपि द्वयोः कर्तृपदं भवति अहं चिन्तयामि महोदय
वृक्षे इति अस्ति भगिनि
वृक्षे
इति
नास्ति कर्तृपदं किम् अस्ति तत्र
पुष्पाणि एव पुष्पाणि एव
पुष्पाणि एव
भवान् पूर्वस्मिन् पूर्वं भवान् उक्तवान् वृक्षः वृक्षौ वृक्षे परन्तु अहं चिन्तयामि पुष्पः पुष्पं पुष्पे पुष्पाणि इति कर्तृपदं
कदा अहम् उक्तवान् वृक्षे इति
नैन भवान् एव नास्ति पूर्वस्मिन् नरेश महोदय किं वदति यत् अत्र वाक्यं किं कः वदति अहं न जानामि महोदय
अस्तु अस्तु किन्तु वृक्षे इति यद् अस्ति
तत्र परिवर्तनं कृतवान् तत्र परिवर्तनं वृक्षे इति कृतवान् परन्तु वृक्षः कर्तृपदं नास्ति अहं चिन्तयामि
पूर्वं पूर्वं वाक्यं
पूर्वं वाक्यं वृक्षः पुष्पं पुष्पे
न न किन्तु किन्तु पूर्वस्मिन् वाक्ये किं भवति वृक्षाः वायुना कम्पन्ते इति अस्ति वाक्यं तत्र एकवचने किं भवति वृक्षः वायुना कम्पते द्विवचने वृक्षौ इति अस्ति वृक्षौ वायुना कम्पेते
तत् समीचीनं महोदय अहं चिन्त वृक्षे पुष्पाणि शोभन्ते तत् अत्र वाक्यं
किन्तु वृक्षः इति पुल्लिङ्गपदम् अस्ति भगिनि अतः वृक्षे इति केवलं सप्तमी विभक्ति
तत् अहं जानामि महोदय परन्तु अत्र पुष्पाणि इति परिवर्तनं कर्तुं आवश्यकं वा वृक्षः परिवर्तनं कर्तुम् आवश्यकं वा इति अहं चिन्तयामि
हा हा अस्तु भगिनि तत्र एतावत् वयं किं कुर्मः केवलम् एतत् क्रियापदस्य परिवर्तनं भवति चेत् कर्तृपदस्य अपि परिवर्तनं भवति अथवा कर्तृपदस्य परिवर्तनं भवति चेत् क्रियापदस्य अपि परिवर्तनं भवति खलु अहं पाठशालां गच्छामि वयं पाठशालां गच्छामः अतः तत्र पाठशालां तु तिष्ठति तत्र परिवर्तनं न भवति इति कृत्वा केवलं कर्तृपदस्य अपि क्रियापदस्य परिवर्तनं भवति
आम् आं महोदय
अस्तु इदानीं वृक्षे इति कर्तृपदं नास्ति पुष्पाणि इति कर्तृपदम् अस्ति शोभन्ते इति क्रियापदमस्ति
तदेव अहं वदामि महोदय भवान् पूर्वं पूर्वं भवान् किम् उक्तवान् अहं न जानामि भवान् वृक्षः वृक्षौ वृक्षे पुष्पाणि वदति तत् अहं वदामि पुष्पम् इति कर्तृपदम् अस्ति वृक्षः इति कर्तृपदं नास्ति
महोदय एतेषु वाक्येषु वयं केवलं प्रथमाविभक्तौ पदानि एव
कर्तृपदं सत्यं भगिनि सत्यं प्रथमाविभक्त्यन्तम् एव कर्तृपदम् अस्ति तस्य परिवर्तनमेव कुर्मः किमर्थं चेत् एतत् क्रियापदं यदि गच्छामि इति अस्ति तद् गच्छामः इति परिवर्तनं कुर्मश्चेत् अहं पाठशालां गच्छामः इति तु न भवति खलु, अतः वयम् इति एव भवति, अतः कर्तृपदस्य परिवर्तनम् आवश्यकमस्ति अत्र. अस्तु भगिनि, तत्र पुनरेकवारं वदति वा, वृक्षे पुष्पाणि शोभन्ते इति.
आं महोदय, वृक्षे पुष्पाणि शोभन्ते, वृक्षे पुष्पं शोभते, वृक्षे पुष्पे शोभेते.
हा समीचीनं भगिनि, अस्तु
तत् अहं वदामि महोदय. वृक्षे
वृक्षयोः वृक्षेषु भवति, वृक्षे वृक्षयोः वृक्षेषु पुष्पाणि.
यदि 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 सर्वं सर्व सर्वाणां पदानां परिवर्तनं कर्तुम् इच्छामः चेत् तद् किन्तु सत्यं सत्यम् अस्तु. अग्रे मधुसूदन महोदय.
क्षम्यतां महोदय, विलम्बः जातः.
चिन्ता मास्तु. सत्कार्येण
सत्कार्येण ते सुखं लभन्ते. सत्कार्येण सः सुखं लभते, सत्कार्येण तौ सुखं लभेते, सत्कार्येण ते सुखं लभन्ते.
हा समीचीनं. अस्तु गीताञ्जलि भगिनी अग्रे.
बालौ क्रीडया मोदेते, बालः क्रीडया मोदते, बालौ क्रीडया मोदेते, बालाः क्रीडया मोदन्ते.
हा समीचीनं भगिनि. अस्तु वेणुगोपाल महोदय अग्रे.
क्रीडापटवः स्पर्धन्ते, क्रीडापटवः इति
जानाति वा पटवः? बहुवचने अस्ति वा एकवचने अस्ति? तत्
बहुवचनम् अस्ति.
बहुवचनं तत्र
क्रीडा
गुरु गुरवः.
अस्तु अस्तु. गुरुः क्रीडा क्रीडापटु
पटुः
पटुः अस्तु क्रीडापटुः स्पर्धते, क्रीडा पटवः स्पर्धेते.
न
गुरु अस्तु अस्तु. क्रीडा क्रीडापटु स्पर्धेते, क्रीडापटवः स्पर्धन्ते.
हा समीचीनं महोदय. अस्तु अग्रे बालचितनी महोदय.
क्षम्यतां महोदय. महोदय
सज्जनाः सज्जनाः लोकमङ्गलं कामयन्ते.
सज्जनाः लोकमङ्गलं कामयन्ते. सज्जनः लोकमङ्गलं कामते
कामयते
सज्जनौ
कामयते
सज्जनः लोकमङ्गलं कामयते, सज्जनौ लोकमङ्गलं कामयते, सज्जनाः लोकमङ्गलं कामयन्ते.
हा समीचीनं महोदय. अस्तु श्रीनिवास महोदय अग्रे.
हा महोदय. दरिद्राः कष्टं सहन्ते, बहुवचनमस्ति. दरिद्रः कष्टं सहते, दरिद्रौ कष्टं सहेते, दरिद्राः कष्टं सहन्ते.
हा समीचीनं महोदय. अस्तु अग्रे वंशीसुधा भगिनी.
आं महोदय. ते सम्यक् भाषन्ते, सः सम्यक् भाषते, ते सम्यक् तौ सम्यक् भाषेते, ते सम्यक् भाषन्ते.
हा समीचीनं भगिनि. हा इदानीं शोभा भगिनि.
युवां कुत्र पलायेते, त्वं कुत्र पलायते अपलायसे, त्वं कुत्र पलायसे, युवां कुत्र पलायेते, यूयं कुत्र पलायध्वे.
हा समीचीनं भगिनि. अस्तु उषा भगिनि.
त्वं संस्कृतेन भाषसे, युवां संस्कृतेन भाषेथे यूयं संस्कृतेन भाषद्वे.
हा समीचीनं. हा अस्तु रघुपति महोदय.
एकनिमिषं यू हा ओके यूयं यूयं कष्टं सहद्वे त्वं कष्टं सहेते त्वं कष्टं सहेते सहसे सहसे सॉरी यूयं कष्टं सहद्वे युवां कष्टं सहेते
युवां कष्टं
सहेते.
समीचीनं महोदय. यूयं कष्टं सहद्वे. समीचीनं महोदय. अस्तु अग्रे गीताञ्जलि भगिनि.
यूयं चित्राणि वीक्षद्वे युवां चित्राणि वीक्षेथे त्वं चित्राणि वीक्षसे.
हा समीचीनं. हा अस्तु मधुसूदन महोदय.
यूयं संस्कृते नित्यं
न संस्कृतोन्नतिं
यूयं संस्कृतोन्नतिं कामयद्वे त्वं संस्कृतोन्नतिं कामयसे युवां संस्कृतोन्नतिं कामयते.
एकवचने पुनरेकवारं महोदय. त्वं
त्वं संस्कृतोन्नतिं कामयसे.
हा कामयसे. हा
युवां संस्कृतोन्नतिं कामयेथे यूयं संस्कृतोन्नतिं कामयद्वे.
हा समीचीनं महोदय. हा श्रीनिवास महोदय अग्रे.
त्वं शरीरेण वर्धसे युवां शरीरेण वर्धेथे यूयं शरीरेण वर्धद्वे.
हा समीचीनं महोदय. अस्तु अग्रे वंशीसुधा भगिनी.
आं महोदय. अहं देवं वन्दे आवां देवं वन्दावहे वयं देवं वन्दामहे.
हा समीचीनं भगिनि. अस्तु गीताञ्जलि भगिनि.
अहं कष्टं सहे आवां कष्टं सहावहे वयं कष्टं सहामहे.
हा समीचीनं. हा शोभा भगिनी अग्रे.
अहं सुखं कामये आवां सुखं कामावहे कामयावहे वयं सुखं कामयामहे.
हा समीचीनं भगिनी. हा तत्र किञ्चित् तत्र वर्ते इति अस्ति किन्तु अत्र कामे इति अस्ति. समीचीनं भगिनि. उषा भगिनी अग्रे.
आवां मिष्टान्नं लभावहे. अहं मिष्टान्नं लभे आवां मिष्टान्नं लभावहे वयं मिष्टान्नं लभामहे.
हा समीचीनं भगिनि. हा रघुपति महोदय अग्रे.
हा महोदय. आवां चित्रं दृष्ट्वा मोदावहे अहं चित्रं दृष्ट्वा मोदे वयं चित्रं दृष्ट्वा मोदामहे.
हा समीचीनं महोदय. बाणचितने महोदय.
आं महोदय. अहं संस्कृतेन भाषे आवां संस्कृतेन भाषावहे वयं संस्कृतेन भाषामहे.
हा समीचीनं महोदय. अस्तु वेणुगोपाल महोदय. अस्तु सः नास्ति इति मन्ये. मधुसूदन महोदय अग्रे.
महोदय. वयं संस्कृतोन्नतिम् अपेक्षामहे. अहं संस्कृतोन्नतिम् अपेक्षे आवां संस्कृतोन्नतिम् अपेक्षावहे वयं संस्कृतोन्नतिम् अपेक्षामहे.
हा समीचीनं महोदय. अस्तु श्रीनिवास महोदय अग्रे. वयं
कष्टं सहामहे अहं कष्टं सहे आवां कष्टं सहावहे वयं कष्टं सहामहे.
हा समीचीनं. वंशीसुधा भगिनी अन्तिमम्.
आं महोदय. वयं सिंहं दृष्ट्वा पलायामहे अहं सिंहं दृष्ट्वा पलाये आवां सिंहं दृष्ट्वा पलायावहे वयं सिंहं दृष्ट्वा पलायामहे.
हा सिंहं दृष्ट्वा किमपि वयं चिन्तनं न कुर्मः, केवलं पलायनं कुर्मः. तत्र आत्मनेपदि धातु तत् सर्वं चिन्तयामः खलु.
तत्र धातु किमपि न चिन्तनं न, पलायनमेव चिन्तनं महोदय.
अस्तु. हा अस्तु. तत्र करपत्रे किमपि प्रश्नः अस्ति वा? तत्र केवलं भुङ्क्ते आस्ते इति तस्य तत्र तत् त्यक्तवन्तः. किन्तु
महोदय एकवारं आस्ते,
हा तत् रघुपतिमहोदय उक्तवान् आस्ते. महोदय किम् आसीत् रघुपतिमहोदय?
महोदय आस्ते आसेते आसते इति अहं पुनः दत्तम्.
अस्तु महोदय.
एकनिमिषं पश्यामि.
तत्र तत्र आस् इति धातु अस्ति खलु, आस् इति
धातु अस्ति.
आस् आस् इत्युक्ते सिट् इति.
आस्ते आसाते आसते.
हा मधुसूदन महोदय.
आसाते आसते.
मधुसूदन महोदय भवानेव प्रश्नं पृष्टवान् खलु. हा तत्र एतत् कर्तुं शक्नुमः. अत्र अष्टाध्यायी डाट् काम् इति एकं सैट् अस्ति, अष्टाध्यायी डाट् काम् इति. तत्र धातु जानीमश्चेत् स्थापयतु, सर्वाणि रूपाणि तत्र प्राप्तुं शक्नोति. अष्टाध्यायी डाट् काम्. अष्टाध्यायी डाट् काम्. तत्र पाणिनेः सूत्राणि सन्ति. अपि धातु इति क्लिक् करोति चेत् धातु आस् अत्र धातु अस्ति आस् इति, ए ए एस् इति. अस्तु. हा बहु समीचीनमस्ति. तत्र बहु सिम् अन्यत् विषयः तत्र समीचीनं यदस्ति, तत्र किमपि क्रियापदं क्लिक् करोति चेत् प्रक्रिया दर्शयति किं किं करणीयं, तत् रूपं प्राप्तुम् इच्छामश्चेत् बहु सम्यक् अस्ति. अस्तु. अन्यत् प्रश्नः अस्ति वा? अन्यप्रश्नः? हा नो चेत् बहु किमपि अद्य वयं कृतवन्तः. आत्मनेपदिनः धातवः इति करपत्रस्य अभ्यासेन आत्मनेपदी धातूनां नवरूपाणि मनसि स्थापितवन्तः इति मन्ये. अस्तु. अग्रिमवर्गे अग्रे गच्छामः. तत्र लोट्लकारः इति विषयः भवति. अस्तु, समयः जातः, विरमामः. अग्रिमवर्गे मिलामः.
धन्यवादः.
धन्यवादः. नमस्कारः.
धन्यवादः.
गीताञ्जलि भगिनी एकनिमिष रेकार्डिङ्ग् इति एक